Have you ever wondered why a particular mantra has to be chanted at a specific time of the day? Or why do we pray to a god or goddess on a given day of the week? Chants of India will help you in understanding the meaning and the significance of selected chants from Vedic times.
Presenting few stotrams in prayer of Lord Hanuman. Shri Anjaneya Mangalashtakam Om Kapishreshtaya Shuraya Sugriva Priyamantrine Janaki Shokanashaya Anjaneyaya Mangalam Manovegaya Ugraya Kalanemi Vidarine Lakshmana Pranadatre Janjaneya Mangalam Mahabalaya Shantaya Durdandi Bandhamochana Mairavana Vinashaya Anjaneyaya Mangalam Parvatayudha Hastaya Rakshakula Vilashine Shri Rama Pada Bhaktaya Anjaneyaya Mangalam Viraktaya Shushilaya Rudramurti Swarupine Rishivissevitaya Asto Anjaneyaya Mangalam Dirghabalaya Kalaya Lankapura Vidarine Lankini Darpanashaya Anjaneyaya Mangalam Namaste Brahmacharina Namaste Vajunandana Namaste Brahmacharyan Namaste Ganalolaya Anjaneyaya Mangalam Prabhavaya Sureshaya Shubhadaya Shubhatmane Vayuputraya Dhiraya Anjaneyaya Mangalam Anjaneyashtakamidam yah pathet satatam narah Siddhyanti sarvakaryani sarvashatru vinashanam Iti Shri Anjaneya Mangalashtakam Sampurnam Srimad Anjaneya Bhujanga Prayat Stotram Atadhyanam Manojavam Marutatulya Vegam Jitendriyam Buddhimatam Varishtam Vatatmajam Vanarayutamukhyam Shri Ramadutam Sharanam Prapadhye Buddhirbhalam Yashodhairyam Nirbhayastvam Marogata Ajadhyam Vakpatutvam Cha Hanumat Smaranat Bhaveta Om Anjaneyaya Vidmahe Vayuputraya Dhimahi Tanno Hanumat Prajodayat Om Fraum Om Namo Hanumate Aveshe Aveshe Swaha Om Hum Hanumate Rudratmakaye Hum Fat Swaha Om Aim Bhrim Hanumate Sri Ramadutaya Namaha Om Hrim Hari Markata Markata Yaswaha Prapanna Nuragam Prabhakan Chanabham Jagad Bhita Shaudyam Tushara Dridhayidyam Trini Bhuta Hetim Ranodhyaddi Bhutim Bhaje Vayupatram Pavitrapta Mitram Bhaje Pavanam Bhavana Nityavasam Bhaje Bhalabhano Prabhacharubhasam Bhaje Chandrika Kunda Mandarahasam Bhaje Santatam Rama Bhupaladasam Bhaje Lakshmana Prana Rakshita Daksham Bhaje Toshita Neka Gidvana Paksham Bhaje Gora Sangrama Sima Hataksham Bhaje Rama Namati Sampratraksham Krita Bhilanadam Chiti Chitpadam Dhanakranta Bhringam Katistor Jangam Vyadvadyaktakesham Bhujashleshitashmam Jayashri Sametam Bhaje Rama Dutam Chaladvalaghatam Brahmachakravalam Kathorattahasam Prabhinnabjajandam Mahasinghanatha Dvishirnatrilokam Bhaje Chanchaneyam Prabhu Vajrakayam Rane Bhishane Meghanade Sanade सरोषे समारोपिते मित्रमुख्ये खगानां घनानां सुराणां च मार्गे नटन्तं वहन्तं हनुमन्तमीडे कनद्रत्नजं भारिदम्भोलिधारं कनद्दन्तनिर्धूतकालोग्रदन्तम् पादाघातभीताब्दिभूतादिवासं रणक्षोणीदक्षं भजे पिङ्गलाक्षम् महागर्भपीडां महोत्पातपीडां महोरोगपीडां महातीव्रपीडां हरत्याशुते पादपद्मानुरक्तो नमस्ते कपिश्रेष्ठ रामप्रियो यः सुधासिन्धुमुल्लङ्घनाथोऽग्रदीप्तः सुधाच्चौषधीस्तप्रगुप्तप्रभावम् क्षणद्रोणशैलस्य सारेण सेतुम् विना भूस्वयं कस्मरथहत्कपीन्द्रः निरातङ्कमाविश्य लङ्काविशङ्को भावनेन सीतातिशोकापहारी समुद्रान्तरङ्गादिरौद्रं विनिद्रं विलङ्घोरुजङ्गस्तुता अमर्त्यसङ्गः रामनाथ रामः क्षमानाथ रामः अशोकेन शोकं विहाय प्रहर्षम् वनान्तर्घनं जीवनं दानवानं विपाट्य प्रहर्षात हनूमत्वमेव जराभारतो भूरि पीडां शरीरे निराधारणारूढगाढप्रतापे भवत्पादभक्तिं भवद्भक्तिरिक्तिं कुरु श्री हनूमत्प्रभो मे दयालो महायोगिनो ब्रह्मरुद्रादयो वा न जानन्ति तत्त्वं निजं राघवस्य कथं जायते मादृशे नित्यमेव प्रसादप्रभो वा नरेन्द्रो नमस्ते नमस्ते महासत्त्ववाहाय तुभ्यं नमस्ते महावज्रदेहाय तुभ्यं नमस्ते परिभूतसूर्याय तुभ्यं नमस्ते कृतमर्त्यकार्याय तुभ्यं नमस्ते सदा ब्रह्मचार्याय तुभ्यं नमस्ते सदा वायुपुत्राय तुभ्यं नमस्ते सदा पिङ्गलाक्षाय तुभ्यं नमस्ते सदा रामभक्ताय तुभ्यं हनुमद्भुजङ्गप्रयातं प्रभाते प्रदोषे अपि वाचार्धरात्रे अप्यमर्त्यः पठन्नश्नत्नश्नतोऽपि प्रमुक्ताखजालं सदा सर्वदा रामभक्तिं प्रियाति इति श्रीमदाञ्जनेय भुजङ्गप्रयातस्तोत्रं सम्पूर्णम् ॐ
थैंक यू फॉर लिसनिंग एज़ विद एवरी शो We have a long way to go, and your review and comments will play a big role in helping us get better. You can write to us with your feedback on contact@gathastory.com. Better yet, leave a review on your favorite podcast website or app.